एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारस्य थारू कल्याणकारी सभायाः वार्ता समूहस्य च मध्ये ह्यो द्वितीय चरणस्य वार्ता अभवत्। गृहमन्त्रालय वित्तायं वार्तायं थारू कल्याणकारी सभा संघर्ष समितेः याचनाः विमृष्टाः। वार्ता अनुकूला च अवर्तत इति सर्वकारीय वार्ता समूहस्य सदस्या भगवती चौधरी अज्ञापयत्। वार्तायं टीकापुर घटनायां संलग्नानां व्यक्तिनां न्यायिक प्रकरणस्य प्रत्यावर्तनस्य प्रक्रियाया विषये विमर्शनं केन्द्रितमिति वार्ता समूह सदस्या चौधरी अवोचत। वार्ता समूह सदस्या चौधरी अपरचरणस्य वार्ता स्वो मंगलवासरे भवितेति अबोधयत्। सर्वकारेण गृहमन्त्रिणः रामबहादुर थापा विदस्य संयोजकत्वे प्रधानमन्त्रिणः परराष्ट्र विषय परामर्शदात्रा डाक्टर राजन भट्टराई इत्यनेन पूर्व सांसदेन भगवती चौधरिणा च सहिता वार्ता समूह संघटितः आसीत्। संसदीय श्रवण समित्या सर्वोच्च न्यायालयाय प्रस्तावितयोः न्यायाधीशद्वयस्य डाक्टर कुमार चुडालस्य नहकुल सुवेदिनस्य विरूद्धे पञ्जीकारितेषु निवेदनेषु निवेदनकर्तृभिः विमृष्टम् वर्तते। सिंहप्रासादे ह्यः उपविष्टे श्रवण समितेः उपवेशे प्रस्तावित न्यायाधीशयो डाक्टर चुडालस्य सुवेदिनश्च विरोधे पञ्जीकारितेषु निवेदनेषु निवेदनकर्तृभिः विमृष्टमस्ति। समितौ द्वाभ्यां गोप्य निवेदनाभ्यां सहितानि सप्त निवेदनानि पञ्जीकारितानि आसन्। एतेषु चतुर्भिः निवेदनकर्तृभिः ह्यः विमृष्टमिति समितेः सभापतिः लक्ष्मणलालकर्णः अज्ञापयत्। कर्णाली प्रदेशे नेकपा एमाले दलस्य सर्वकारस्य संघटन प्रक्रिया प्रारब्धास्ति। एमाले कर्णाली प्रदेश सभा संसदीय दलस्य ह्यस्तनोपवेशेन तात्कालिक नेकपा दलस्य विभाजनस्य पश्चात् नेकपा एमाले दलस्य पुनस्थापनायाः अनन्तरं नूतन सर्वकारस्य संघटन प्रक्रिया प्रारब्धास्ति। एमाले संसदीय दलस्य नेत्रा यमलाल कर्णेलेन प्रदेशस्य अर्थमन्त्रिणा प्रकाश ज्वालाभिदेन च पृथक पृथक समूहस्य नेतृत्वं विहितं। सदपि ह्य संस्थापन पक्षस्य नेतृभिः आहुति उपवेशे नेतोः माधव नेपालस्य पक्षस्य सर्वे सांसदाः सहभागिनः आसन्। सार्वजनिक लेखा समित्या उद्योगी व्यवसायीभ्यो मासाभ्यन्तरे विद्युतः शुल्कं ग्रहीतुं निर्दिष्टं वर्तते। समित्या उद्योगी व्यवसायीभ्यः ग्रहणाय अवशिष्टं दशाब्जानं चतुर्दश कोटीनाञ्च रूप्यकाणां विद्युत् शुल्कं ग्रहीतुं सर्वकारः निर्दिष्टोऽस्ति। सभापतिः भरतकुमार शाह अवबोधयत्। समितेः ह्यस्तनोपवेशे सांसदाः प्रदीप यादव मोहम्मद इस्तियाकराई पार्वती कुमारी विसुन्के धर्मशिला चापागाई छ राज्याय विद्युत् शुल्कस्य अप्रदायकानां व्यवसायिनां विदेह दण्डनस्य परिदौ आनयनाय बलं प्रादुः। समानुपातिक निर्वाचन प्रणाल्या प्रतिनिधिसभाया सदस्यपदे प्रचिता जानकी देवी रामा ह्यः शपथम् अगृह्णात्। सिंहप्रासादवर्तिनी संसद सचिवालय सभामुख अग्निप्रसाद सापकोटा एनाम पदगोपनीयतयोः शपथम् अग्राहयत्। सर्वकारेण चीनदेशात् अनुदानस्वरूपेण प्राप्तं कोरोना विषाणु विरोधी टीकाकरणं परश्वः चैत्रस्य पञ्चविंशात् दिवसात् विधातुं निर्णीतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः चीनदेशात् प्राप्तं भेरोसेल नामकं कोरोना विषाणु विरोधी टीकाकरणं अस्यैव चैत्रस्य पञ्चविंशात् दिवसात् काष्ठमण्डपस्य निश्चित चिकित्सालयेभ्यः कर्तुं निर्णीतमिति अज्ञापयत्। प्रवक्ता डाक्टर गौतमः टीकाकरणम् अत्यावश्यक सेवायां संलग्नाभ्यः व्यक्तिभ्यः चीन सर्वकारस्य छात्रवृत्तौ अधीयानेभ्यः विद्यार्थिभ्यः हिमालय व्यापारे संलग्नेभ्यो जनेभ्यः चीनदेशम् अध्ययनाय जिगमिषुभ्यो व्यक्तिभ्यश्च प्रदातुं निर्णीतमिति अज्ञापयत्। अत्रान्तरे ह्यः आराष्टं 67,100 जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्यः अतिरिक्तः 17,100 जना कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि आराष्टं संक्रमणमुक्तानां जनानां प्रतिशतं 10.93% स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली सेनाया भारतीय सेनातः प्राप्तं कोरोना विरोधी टीकाकरणं प्रदातुं प्रारब्धमस्ति। नेपाली सेनाया हेटौडा वर्तिन्यां मध्यप्रेतनायां प्रदेशस्तरीय भूतपूर्व सैनिक सम्मेलनम् ह्य उद्घाटयन् प्रधान सेनापति पूर्णचन्द्र थापा संगठनस्य उद्देश्यस्य अनुरूपं सैनिकेभ्यः पूर्वसैनिकेभ्यः आश्रित परिवारेभ्यश्च ह्य टीकाकरणं प्रदातुं प्रारब्धम् इति अज्ञापयत्। नेपाल तैल निगमेन शिला तैलीय पदार्थानां मूल्यं ह्य पुनः वर्धापितं वर्तते। पश्चात्तन विवरणस्य अनुसारेण निगमेन पेट्रोल तैले प्रतिलिटरमितं रूप्यकद्वयं वर्धापितं वर्तते। नवीन मूल्यस्य अनुसारेण सम्प्रति पेट्रोल तैलस्य मूल्यं प्रतिलिटरमितं 20+ शतरूप्यकाणि प्राप्तं वर्तते। डीजल मृत्तिका तैलयोरपि प्रतिलिटरमितं रूप्यकद्वयमेव वर्धापितमस्ति। नवीन मूल्यस्य अनुसारेण डीजल मृत्तिका तैलयोः मूल्यं प्रतिलिटरमितं 73 शतरूप्यकाणि प्राप्तं वर्तते। नवीन मूल्यसूची गतरात्रौ द्वादशवादनतः क्रियान्विता अस्ति। एलपी ग्यास पाचनेन्धनस्य विमानेन्धनस्य च स्फुट विक्रय मूल्यम् इदानीं यथावत् अस्तीति निगमस्य प्रवक्ता विनीतमणि उपाध्याय अबोधयत्। पूर्व प्रधान सेनापति अर्जुन नरसिंह राणा 91 वर्षाणां वयसि ह्यो दिवंगतः। कोविड 19 संक्रमणेन उत्पन्नस्य प्रलापक ज्वरस्य कारणेन छावनीस्थिते वीरेन्द्र सैनिक चिकित्सालये उपचारस्य क्रमे राणा दिवंगत इति नेपाली सेनायाः प्रवक्ता सन्तोष वल्लभ पौडेलः अज्ञापयत्।